हरि ओ संयो रावणीमहे रातुयज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वन्निगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्तिश्शान्तिश्शान्तिः ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपाद स भूमिम् विश्वतो हृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदग सर्वम् यद्भूतैयच्च भव्यम् हुतामृतत्वस्येषा नः यदन्नेनातिरोहति एतावानस्य महिमा अतोच्चायाज्ञश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवि त्रिपादूर्धौ दयित्पुरुषः पादोऽस्येहाभवात्मनः ततो विश्वम् व्यक्रामत शासनानशने अभि तस्माद्विराडजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषाः देवायज्ञमतन्वता प्रसन्तो अस्यासीदाज्यम् भीष्म इथमः शरद्धविः सप्तास्यासन् परितयः त्रिसप्त समिधः कृताः देवायत्यद्यन्तन्वानाः अवध्नन् पुरुषम् पशुम् तैयज्ञम् बर्हिषित्रोक्षन्न पुरुषम् जातमग्रतः तेन देवामयजन्ता साध्यार्षयश्चये तस्माद्यज्ञात् सर्वभूतः संहृतम् पृषदाध्यम् पशोक्रस्ताग्रश्चक्रे वायव्यान आरण्यान् ग्राम्याश्रये तस्माद्यज्ञात् सर्वभूतः पृचः सामानि जज्ञिरे छन्दागोऽसि जज्ञिरे तस्माद् यजुस्तस्मादजायत तस्मादश्वाजायन्ता ये केशो भयादतः गावो हजज्ञिरे तस्माद् तस्माज्जाता भजावयः यत्पुरुषम् व्यददुः कतिराव्यकल्पयन् मुखम् किमस्य गौ बाहु बाहूरूपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहूराजन्यः कृतः भूरूतदस्य यद्वैश्यः पदिकालशूद्रो अजायत चन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णोद्यौ समवर्तत पदिभ्याम् भूमिर्दिशश्रोत्रात् तथा लोकावकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्यतीरः नामानि कृत्वा व्यपदन्यदास्ते दाता पुरस्तात्यमुदा जहार शक्रः प्रविद्वान् प्रदिशश्चतस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् देहनाकम् महिमानः सजन्ते यत्र पूर्वे साध्याः सन्ति देवाः अदिभ्यः सम्भूतः पृथिव्यैरसाच्च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा वितदद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्ताद तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते जनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीनाम् वदमिच्छन्ति वेदसः यो देवेभ्यादपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो ऋचाय ब्राह्मये ऋचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवाः सन्वशे ईश्वते लक्ष्मीश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा ॐ शान्तिश्शान्तिश्शान्तिः।